अथ त्रयोदशोऽध्यायः अर्जुन उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते एतद्यो वेति तं प्राहुः क्षेत्रज्ञ इति तद्विदः क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानमतं मम तत्क्षेत्रं यच्च यादृक् च यद्विकारी यतश्च यत् सच्च यो यत्प्रभावश्च तत्समासेन मे शृणु ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकं च पञ्चचेन्द्रियगोचराः इच्छाद्वेषसुखं दुःखं सङ्घातश्चेतनाधृतिः एतत्क्षेत्रं समासेन संविकारं मुदाहृतम् अमानित्वं मदम्भित्वम् अहिंसा क्षान्तिरार्जवम् आचार्योपासनं शौचं स्थैर्यं आत्मविनिग्रहः इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च जन्ममृत्युञ्जराव्याधि दुःखं दोषानुदर्शनम् असक्तिरन्नभिष्वङ्गः पुत्रदारगृहादिषु नित्यं च सम्मचित्तत्वम् इष्टानिष्टोपपत्तिषु मयीतानन्ययोगेन भक्तिरव्यभिचारिणी विविक्तदेशसेवित्वम् अरतिर्जनसंशदे अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यद्दतोऽन्यथा ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् सर्वतः श्रुतिमल्लोके सर्वमावृत्यतिष्ठति सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियं विवर्जितम् असक्तं सर्वभृक्षैव निर्गुणं गुणभोक्तृ च बहिरन्तश्च भूतानाम् अचरं चरमेव च सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् avibhaktam cha bhuteshu vibhaktam nirvacha sthitam bhuta bhartar cha tadnyeyam grasishnu prabhavishnu cha jyotisham api tad jyotis tamasah paramuchyate jnanam jnayam jnanagamyam hridye sarvasya vishthitam iti kshetram tadha jnanam jnayam choktam samasatah madbhakta etad vijnaya madbhavayopapandyate prakritim purusham chaiva vidhyanadi ubhavapi vikaramscha gunamscha eva vidhi prakriti sambhavan karyam karana kartritve hetu prakritiruchyate purusha sugha dughanam bhoktritve heturuchyate purusha prakritistho hi bhunkte prakriti jan gunan karanam guna sango asya sandasadyoni janmasu upadrashtanumantacha bharta bhokta maheshwaraha paramatmeti chapyukto dehe asmin purushah parahan ya evam veti purusham prakritim cha gunai saha sarvatha vartamano api nasa bhuyo abhijayate dhyane natmani pashyante kechindatmanamatmana anye sanghena yogena karma yogena chapare anye tvevam jnanantah shrutvanyebhya upasate te api chatittarantyeva mrityam shruti parayanah yavat sanjayate kinchet sattvam sthavara jangamam kshetra kshetrajna samyogat tadvindhi bharatarshabha samam sarveshu bhuteshu tishthantam parameshwaram vinasyat svavinasyantam yah pasyati sapasyati samam pasyanhi sarvatra samam vasthitamishwaram nahi nastyatmanatmanam tato yati param gatim prakrityaivacha karmani kriyamanani sarvashah yah pasyati tadhatmanam akartaram sapashyati yadam bhuta pratag bhavam ekastham manupashyati tadda eva cha vistaram brahma sampadyate tada anaditva nirgunatva paramatmayam avyayah sharirastho api kaunteya nankaroti nalipyate yatha sarvagatam saukshmyad akasham nopalimpyate sarvatravasthito dehe tadhanmanopalimpyate yatha prakashayantyekaha krutsnam lokam imam ravihe क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारतं क्षेत्रक्षेत्रज्ञयोरेवं अन्तरं ज्ञानचक्षुषा भूतं प्रकृतिमोक्षं च ये विदर्यान्ति ते परम् इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः।